हरिओम आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधि तिवारी आदौ मुख्याः वार्ताः गृहमन्त्री अमित शाहः जम्मू कश्मीरे सुरक्षा स्थितिं समीक्षितुम् अद्य नवदिल्ल्याम् एकं उच्चस्तरीयोपवेशनं विहितवान् सर्वकारः आपराधिक न्यायिक प्रणाल्याः प्रशासने भारतीयः प्रगतिवान् पन्थाः इति शीर्षकेण अद्य कोलकातायां सम्मेलनम् आयोजितवान् सिक्किम प्रदेशे अत्यधिक वृष्ट्या भूस्खलनेन च अवरुद्धानां द्वादश शताधिकानां देशीयानां पर्यटकानां पञ्चदश च वैदेशिक पर्यटकानां निष्कासनकार्यम् अद्य विधीयते ऋतुविभागेन देशस्य उत्तरपश्चिमीय भागेषु मध्यवर्तीषु पूर्वीयेषु च भागेषु अद्य भीषण ग्रीष्मस्य नारंग रक्तवारिणिकी जनसंचेतना प्रसारिता अपि च टेनिस स्पर्धायां अद्य सायं इटली देशस्य एटीपी चैलेंजर स्पर्धायां पुरुषाणां एकल स्पर्धायाः अन्तिमचक्रे भारतीय क्रीडकस्य सुमित नांगलस्य प्रतिस्पर्धा इटली देशीयेन लुसियाना डार्डेरी इत्यनेन सह भविष्यति अथ वार्ताः विशदीकृत्य गृहमन्त्री अमितशाहः जम्मूकश्मीरे सुरक्षास्थितिं समीक्षितुम् अद्य नवदिल्ल्याम् एकं उच्चस्तरीयोपवेशनं विहितवान् एतस्मिन् उपवेशने असौ केन्द्रशासितप्रदेशे अधुनावधौ जातम् आतंकीयाक्रमणं निधाय सुरक्षास्थितिं परिचर्चितवान् उपवेशने जम्मूकश्मीरस्य उपराज्यपालः मनोजसिन्हाः राष्ट्रियसुरक्षापरामर्शदः अजीतडोभालः केन्द्रीयगृहसचिवः अजयभल्लाः जम्मूकश्मीरप्रशासनस्य च वरिष्ठाधिकारिणः उपस्थिताः आसन् सर्वकारः आपराधिकन्यायिकप्रणाल्याः प्रशासने भारतीयः प्रगतिमान् पन्थाः इति शीर्षकेण अद्य कोलकातानगरे सम्मेलनम् आयोजितवान् केन्द्रीय विधि न्याय मन्त्री अर्जुन राम मेघवालः सम्मेलनस्य अस्य उद्घाटनं कृतवान् सः उक्तवान् यत् एते त्रयः आपराधिक विधयः विहिताः मेघवालः अग्रे प्रोक्तवान् यत् यथास्थितिः यथासमयं च विधिषु परिवर्तनानि आवश्यकानि सन्ति सिक्किम प्रदेशे अत्यधिक वृष्ट्या भूस्खलनेन च मुंगन जनपदस्य लाचुंग चुंगथांग स्थलयोः अवरुद्धानां द्वादश शताधिकानां देशीयानां पर्यटकानां पञ्चदश च वैदेशिक पर्यटकानां निष्कासन कार्यम् अद्य विधीयते मुंगन जनपदस्य जनपदाधिकारी हेमकुमार छत्री इत्येषः आकाशवाणीं संसूचितवान् यत् प्रतिकूल ऋतोः प्रभावेन अवरुद्धानां जनानां कृते वैमानिकी सेवापि नैव सम्भाव्यते अपि च विविधेषु स्थानेषु मार्गसम्पर्काः अवरुद्धाः जाताः नैरन्तर्येण वृष्ट्याः नवजनाः मृत्युम् अपि उपगताः ऋतुविभागेन देशस्य उत्तरपश्चिमीय भागेषु मध्यवर्तीषु पूर्वीयेषु च भागेषु अद्य भीषण ग्रीष्मस्य नारंग रक्तवारिणिकी जनसंचेतना प्रसारिता उत्तरप्रदेश पंजाब हरियाणा चंडीगढ़ दिल्ली बिहार झारखंड प्रदेशानां केषुचित् भागेषु आगामिनं द्विदिवसं यावत् उष्णतापस्य भीषण ग्रीष्मस्य प्रकोपो भविष्यति हिमाचल प्रदेश राजस्थान मध्य प्रदेश छत्तीसगढ़ उत्तराखंड प्रदेशेषु जून मासस्य अष्टादश दिनांकं यावत् ईदृशी स्थिति भविष्यति प्रियाः श्रोतारः संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ च न्यूज ऑन एआईआर चलदूरभाषीयतन्त्रांशे अपि उपलब्धो भविष्यति प्रधानमन्त्री नरेन्द्र मोदी आकाशवाण्याः मन की बात इत्यस्मिन् कार्यक्रमे अस्य मासस्य त्रिंशत् दिनांके देशवासिभिः साकं विचार विनिमयं करिष्यति मन की बात इति मासिक कार्यक्रमस्य इदं एकादशाधिकैक संस्करणं भविष्यति। अस्य कार्यक्रमस्य प्रसारणं आकाशवाण्याः दूरदर्शनस्य च सर्वाभिः वाहिनीभिः प्रसारयिष्यति। अयं कार्यक्रमः आकाशवाणी दूरदर्शन प्रधानमंत्री कार्यालय सूचना प्रसारण मंत्रालय इत्येतेषां यूट्यूब वाहिनीष्वपि द्रष्टुं शक्यते इति। प्रधानमंत्रिणः संबोधनानन्तरं अनुक्षणं अयं कार्यक्रमः क्षेत्रीय भाषास्वपि श्रोतुं शक्यते। जनाः निज विचारान् परामर्शान् च निःशुल्क दूरभाष संख्यायां 1800117800 इत्यत्र प्रेषितुं शक्नुवन्ति। केन्द्रीय कृषि मंत्री शिवराज सिंह चौहानः प्रोदीरितवान् यत् प्रधानमंत्री नरेन्द्र मोदी जून मासस्य 18 दिनांके मंगलवासरे च किसान सम्मान निधि योजनायाः अन्तर्गतं 3,00,000,000,000 कृषकाणां वित्तकोषे भूयोपि 20,000,000,000,000 रूप्यकाणि हस्तांतरितानि करिष्यति। नवदिल्ल्यां श्री चौहानः अकथयत् यत् व्यतीतेषु दशसु वर्षेषु साम्प्रतं यावत् 11,00,000,000,000 कृषकाणां वित्तकोषेषु 3,00,000,000,000 रूप्यकाणि सम्प्रेषितानि। असौ जून मासस्य 18 दिनांके प्रधानमन्त्रिणः कार्यक्रमेऽस्मिन् सम्मिलितुं सर्वेभ्यः मुख्यमन्त्रिभ्यः एकं पत्रमपि लिखितवान्। सः प्रकाशितवान् यत् असौ ग्रामीणविकासः कृषिः च कृषक कल्याण मंत्री रूपेण प्रभारं स्वीकृत्य मंत्रालयस्य अधिकारिभिः साकं चर्चां कृत्वा कृषकाणां कल्याण संबंधेषु प्रत्येकस्मिन् महत्वपूर्णेषु विषयेषु कार्यं कुर्वन् अस्ति। चौहानः अवदत् यत् सः नूतन सर्वकारस्य शतदिवसीय योजनायाः अन्तर्गतं स्वमंत्रालयस्य कार्ययोजनायाः अपि समीक्षां कृतवान्। अद्य गंगादशहरा पर्व परिपाल्यते। अस्मिन् शुभावसरे उत्तरप्रदेशस्थिते प्रयागराजे वाराणस्याम् अथ च हरिद्वारे गढ़मुक्तेश्वरे च विभिन्नेषु गंगायाः घट्टेषु श्रद्धालवः पूजार्चनां स्नानं च कुर्वन्ति। अपि च उत्तरप्रदेशे आरक्षिदलैः विभिन्नेषु पवित्रस्थानेषु सुरक्षायाः सुदृढ़ा व्यवस्थापि विहिता। वन्दे भारत रेलयानस्य शयनयान श्रेण्याः परीक्षणम् आगामिनि मासद्वये समारप्स्यते। वर्तमान समये रेलविभागेन वन्दे भारत एक्सप्रेस यानं प्रचाल्यते, यस्मिन् केवलं आसन्दाः एव स्थापिताः सन्ति। रेलमंत्री अश्विनी वैष्णवः प्रोक्तवान् यत् वन्दे भारत शयनयान श्रेण्याः सततं अभ्यर्थनं संवर्धते। अवधेयं वर्तते यत् वन्दे भारत रेलयानं स्वदेशे निर्मितं प्रथमं अर्धोच्चगतियुतं रेलयानं वर्तते। मन्त्रिणा निवेदितं यत् आगामीषु पञ्चवर्षेषु प्रशासनं रेलगत आधारभूत संरचनानां विकासार्थं यात्रिभ्यः सौविध्यप्रदानाय प्रतिबद्धं भविष्यति। जम्मू कश्मीरस्य उपराज्यपालः मनोज सिन्हाः जम्मू कश्मीर राज्ये आतंकवादीनां आधारभूत संरचनानां विनाशार्थं सुरक्षा संस्थाभिः सह समन्वयेन कार्यान्वयनं कर्तुं प्रशासनाय निर्देशं प्रदत्तवान्। उपराष्ट्रपतिः राज्यसभायाः सभापतिः जगदीप धनखड़ः अद्य संसद भवन परिसरे नवनिर्मितस्य प्रेरणास्थलस्य उद्घाटनं करिष्यति। कार्यक्रमाय लोकसभायाः राज्यसभायाः सर्वे सदस्याः आमन्त्रिताः। प्रेरणास्थलस्य निर्माणं संसद भवन परिसरे महतां नेतॄणां स्वाधीन संग्रामीणां च एकस्मिन् एव स्थाने श्रद्धांजलिं अर्पयितुं कृतम् अस्ति। टेनिस स्पर्धायां अद्य सायं इटली देशस्य एटीपी चैलेंजर्स स्पर्धायां पुरुषाणां एकल स्पर्धायाः अन्तिमचक्रे भारतीय क्रीडकस्य सुमित नांगलस्य प्रतिस्पर्धा लुसियानो डार्डेरी इत्यनेन सह भविष्यति इति वार्ताः।